इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य आरभ्य त्रयाणां राज्यानां पञ्चदिवसीय यात्रा रता भविष्यति। राष्ट्रपतिः बिहार मध्यप्रदेश गुजरात प्रदेशानां यात्रायां भविष्यति। इयं यात्रा मार्च मासे प्रथमे दिनांके सम्पन्नतां प्राप्स्यति। राष्ट्रपतिः अद्य बिहार राज्ये पटना चिकित्सकीय महाविद्यालयस्य शताब्दी समारोहे सम्मिलिता भविष्यति। तदनु असौ श्वः मध्यप्रदेशस्य छतरपुरस्य गढायां बागेश्वर जनसेवा समिति द्वारा आयोजिते सामूहिक विवाह समारोहे सम्मिलिता भविष्यति। श्वः राष्ट्रपतिः गुजरात राज्यस्य केवडियायां स्टैच्यू ऑफ यूनिटी इत्यत्र श्रद्धांजलिं समर्प्य नर्मदा आरतीं द्रक्ष्यति। गुरुवासरे राष्ट्रपतिः केवडियायां एकता कौशल विकास केन्द्रं प्रति यास्यति। अहमदाबाद नगरे च राष्ट्रिय डिजाइन इत्येतस्य संस्थानस्य चतुश्चत्वारिंशत्तमे दीक्षांत समारोहे सम्मिलिता भविष्यति। शुक्रवासरे असौ गांधीनगरे राष्ट्रिय न्याय वैद्यकीय विज्ञान विश्वविद्यालयस्य तृतीयं दीक्षांत समारोहं भागं ग्रहीष्यति। तस्मिन्नेव दिवसे राष्ट्रपतिः भुजनगरे स्मृतिवन भूकंप स्मारकं गमिष्यति। शनिवासरे च राष्ट्रपतिः यूनेस्को इति विश्व रिक्त स्थलस्य धोलावीरा इत्याख्यस्य भ्रमणं विधास्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातःकाले सार्ध दशवादने असम एडवांटेज इत्येतस्य द्वितीय संस्करणस्य निवेशावसंरचना शिखर सम्मेलनस्य उद्घाटनं करिष्यति। एतस्मिन् द्विदिवसात्मके शिखर सम्मेलने एकं उद्घाटन सत्रं सप्तमन्त्रिस्तरीयं सत्रं चतुर्दश विषयगतानि सत्राणि समाविष्टानि सन्ति इति। येषु औद्योगिक विकासे वैश्विक व्यापार सहभागितायां असमस्य च जीवन्ते सूक्ष्म लघु मध्यमोद्योग च ध्यान केन्द्रितं स्यादिति। अपि च यस्मिन् चत्वारिंशदधिक द्विशत संख्यका प्रदर्शका भागं भजिष्यन्ति। असम प्रदेशस्य राज्यपाल एलपी आचार्य विदेशमन्त्री डॉ एस जयशंकर मुख्यमंत्री हेमंत बिस्व शर्मा केन्द्रीय जलपोतस्थानक जलमार्ग मंत्री सर्बानन्द सोनोवाल नैकेषां देशानां च व्यावसायिक प्रतिनिधिमण्डलान्यपि भागं ग्रहीष्यन्ति। विदेशमन्त्री डॉ एस जयशंकरः कथितवान् यत् भारतेन सर्वदैव मानवाधिकाराणां वैश्विक प्रचारे संरक्षणे च सक्रियतया भूमिका निभालिता। जिनेवानगरे संयुक्त राष्ट्र मानवाधिकार परिषदः अष्टपञ्चाशत्तमं सत्रम् आभासीय माध्यमेन सम्बोधयन् डॉ जयशंकरः प्रोदीरितवान् यत् भारतस्य दृक्पातः स्वसहभागितानाम् अनुरूप क्षमता निर्माण अपि च मानव संसाधनस्य आधारभूत संरचनायाः च सुदृढीकरणे सुस्थिरो वर्तते। असौ सबलतया कथितवान् यत् भारतम् आतंकवादं विरुध्य दृढं स्थिरं च वर्तते। भारतेन सर्वदा आतंकवादं प्रति शून्य सहिष्णुतायाः समर्थनं करिष्यते। तीर्थराजे प्रयागराजे ऐतिहासिकस्य प्रचल्यमानस्य महाकुम्भस्य श्वः महाशिवरात्र्यः पावनावसरे आधिकारिकरूपेण समापनं भविष्यति। शुभावसरम् एनं दिव्यं भव्यं च कर्तुं प्रशासनेन व्यापकी व्यवस्था विहितास्ति। श्रद्धालूनां सुरक्षायै संरक्षायै च अनेके पदक्षेपाः उत्थापिताः। प्रयागराजस्य जनपदाधिकारी रविन्द्रकुमार मान्दडः सूचितवान् श्रद्धालूनां सुरक्षायै सुविधायै च प्राथमिकता प्रदीयते। पुरुषाणां आईसीसी चैम्पियंस ट्रॉफी इत्येतस्यां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ रावलपिंडी नगरे न्यूजीलैंड दलेन बांग्लादेश दलं पञ्चस्तोभैः पराजितम्। एतेन साकमेव भारतीय दलं न्यूजीलैंड दलं च उपान्त्यचक्रे प्रविष्टवती इति वार्ताः।